महोदय. ॐ तेन धौताकिरः पुंसां विमलैशब्दवादिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. नमस्कारः महोदय, सर्वेषां सुस्वागतम्.
अस्मद्गुरुभ्यो नमः. नमस्सर्वेभ्यः. अद्यतनगीताप्रवेशवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तरप् तमप् प्रत्ययद्वयस्य चिन्तनं. गीताप्रवेशपुस्तके अत्र पाठः अस्ति दशमः पाठः, पुटः अस्ति दशाधिकशततमः पुटः. तस्माद् आरभ्य अद्य पठिष्यामः. अत्र पुस्तके दशमः पाठः, पुटसङ्ख्या अस्ति दशाधिकशततमः पुटः. अस्तु, इदानीमत्र लक्ष्मीभगिनी आदौ श्लोकत्रयं वर्तते. श्लोकं
महोदय, भवतः ध्वनिः सम्यक् न श्रूयते.
अत्र लक्ष्मीभगिनी म्यूट् मध्ये गच्छतु. अस्तु भगिनी, यदा पठन् पठति तदानीमेव अन्म्यूट् करोतु. अत्र पुस्तके श्लोकाः सन्ति किल, श्लोकान् न पठेम अद्य. केवलमत्र गद्यभागं यदस्ति तस्मात् आरभ्य. अत्र भगवद्गीता ज्ञानदीपिका इति कथ्यते, तस्मात् आरभ्य भगिनी पठतु.
अस्तु महोदय. भगवद्गीता ज्ञानदीपिका इति कथ्यते. तत्र भगवान् श्रीकृष्णः अर्जुनम् उद्दिश्य एवं वदति. हे अर्जुन, इदानीं क्षत्रियस्य ते युद्धं परमो धर्मः. तस्य अकरणे तव महती अपकीर्तिः सम्भवति. ईदृशी अपकीर्तिः मरणमपि अतिशेते. यदि युद्धं न करोषि तर्हि ये अद्य तव सम्मानं कुर्वन्ति ते एव वदिष्यन्ति यत् त्वं रणात् भीत्या पलायितः इति. शत्रवः अपि तव सामर्थ्यं निन्दन्तः दुर्वचनानि कथयिष्यन्ति. तस्मात् दुःखतरम् अन्यत् किम् अस्ति इति. ततोपि दुःखतरं किमपि नास्ति इति अर्थः. अत्र जीवने अपकीर्तिः, मित्रैः अवमानः, शत्रुभिः निन्दनम् इत्येतत् अपेक्षया अधिकं दुःखं नास्ति एव इति वक्तुं दुःखतरम् इति शब्दस्य प्रयोगः कृतः अस्ति.
वदतु भगिनी, किमस्ति अत्र?
अत्र किम् उक्तम् इत्युक्ते, भगवान् श्रीकृष्णः अर्जुनं प्रति युद्धभूम्यां किं वदति इति. तत्र अर्जुनः मम कुटुम्ब मनुष्याणां प्रति अहं युद्धं न करिष्यामि, युद्धं त्यक्त्वा अहं तस्य राज्यं ददामि इति सः वदति. तं तत् शब्दं श्रुत्वा भगवान् श्रीकृष्णः अर्जुनं वदति. किं वदति इत्युक्ते, यदि त्वं क्षत्रियः असि तर्हि क्षत्रियधर्मस्य परिपालनं सर्वदा करणीयम् इति. किमर्थम् इत्युक्ते, क्षत्रियस्य प्रथमो धर्मः क्षात्रधर्मस्य प्रदर्शनम् एव. यदि त्वं क्षत्रियधर्मस्य प्रकटनं न करोति तर्हि अपकीर्तिः वर्तते. एतत् अपकीर्तिः मरणम् अपि मरणम् अपेक्षया अति किं वक्तव्यम् अपकीर्तिः इति मरणमपि अतिशेते इति अस्ति. अहं पुनः आगमिष्यामि तत्र. अनन्तरं सः यदि त्वं युद्धं न करोषि तर्हि यः जना ये जनाः त्वाम् अद्य सम्मानं कुर्वन्ति ते त्वां त्वाम् एव निन्दां करोति किम् किम् उक्त्वा इत्युक्ते अर्जुनः युद्धेषु युद्धभूम्यां सः पलायनं कृतवान् इति सः सर्वदा निन्दनं त्वां निन्दनं कुर्वन्ति अनन्तरं एतत्तु भवतः मित्रः एव एवं मित्रः एव वदन्ति अन्यः सन्ति भवतः शत्रवः ते किं वदन्ति इत्युक्ते सः भवान् क्षात्रधर्मस्य परिपालनं न कृतवान् अतः सः क्षत्रियः एव न इति सः अपि दुर्वचनानि कथयिष्यन्ति अतः यदि भवान् यदि भवान् युद्धं न करोति करोषि तर्हि वचनत्रयम् उद्भावयति किम् इत्युक्ते भवतः जीवने अपकीर्तिः अनन्तरं मित्रैः उक्त अपमानवचनैः अनन्तरं शत्रुभिः उक्त निन्दावचनम् अपि भवान् धारयितुं योग्यः भवति अतः एतद् त्रीणि वचनानि अस्ति त्रीणि स्थिताः सन्ति अतः तत्र दुःखं ते सर्वे दुःखमेव उद्भावयन्ति मनसि दुःखमेव उद्भावयन्ति अतः अत्यन्त दुःखस्य कारणं भवति भविष्यति अतः तदेव दुःखतरम् इति शब्दस्य उपयुज्य शब्दम् उपयुज्य सूचना अकरोत् एवमेव महोदय
इति पदम् अस्ति अतिशेते इति अत्र शीङ् धातोः प्रयोगः शेते परन्तु अति यति इति उपसर्गः तस्य योजनेन अत्र किं भवति अतिशेते अत्र तुलना अस्ति कयोर्मध्ये तुलना अस्ति अत्र अपकीर्तिः मरणं द्वयोर्मध्ये द्वयोः मध्ये किम् उचितं भवति अपकीर्तिः वा मरणं वा इति प्रश्ने सति मरणमेव समुचितं भवति अपकीर्तिः समुचितं नास्ति अत्र अत्र अधिकम् इति अर्थे अधिकं प्रशंसनीयम् अथवा अधिकं यत्किमपि भवतु उचितं यत्किमपि भवतु यदा द्वयोर्मध्ये तुलना भवति तदानीं द्वयोर्मध्ये समुचितं किमस्ति अथवा अधिकं किमस्ति प्रशस्तनीयं किमस्ति इति वदनार्थम् इदम् अतिशेते इति वदेम अत्र मरणम् अतिशेते अत्र अपकीर्तिः मरणम् एव अतिशेते इति कथनस्य आशयः अस्तु अत्र तुलना अस्ति इति कथनस्य आशयः अपि च अत्र एकं नूतनं पदं प्रयुक्तमस्ति तत् पदमस्ति दुःखतरम् अत्र दुःखतरम् इति दुःख इति प्रातिपदिकम् अस्ति सः दुःखम् अनुभवति केन दुःखम् अनुभवति अत्र यदि अन्यः कोऽपि निन्दवचनानि वदन्ति तैः वचनैः प्रायः कश्चन जनः दुःखम् अनुभवति इदानीं तेन यद् दुःखम् अनुभवति तत् दुःखम् अधिकं दुःखं भवति यदि तस्य तुलना अन्येन कृतः भवति तदानीम् अत्र द्वयोर्मध्ये एकम् अधिकं दुःखं ददाति विषयद्वयम् अपकीर्तिः इति एकम् एकः विषयः अथवा निन्दवचनानि इति एकः विषयः अन्यः यत्किमपि भवतु इदानीम् अत्र निन्दवचनानि अपि च अन्यः विषयः द्वयोर्मध्ये निन्दवचनानि अधिकं दुःखं ददाति इति वक्तुम् अथवा तादृशम् अर्थं प्रदर्शयितुम् अत्र दुःखतरम् इति पदस्य प्रयोगः कृतः अस्ति इति तरम् इति अत्र दुःखतरम् इति नपुंसकलिङ्गे अस्ति इतोपि अत्र तरम् इति कथं वा निष्पादितम् इति अत्र दुःखतरम् इति पदं कथं वा निष्पादितम् इति अग्रे द्रक्ष्यामः परन्तु अत्र दुःखतरम् इत्यस्य पदस्य प्रयोगः अत्र यदा द्वयोः विषयोः मध्ये विषययोः मध्ये अत्र काचन तुलना कृता अस्ति द्वयोः विषययोः मध्ये एकः विषयः अधिकं दुःखं ददाति तदानीं वदेम इदं दुःखतरम् इति ततः अधिकं दुःखम् अन्येन न प्राप्नोमि इति कथनस्य आशयः अत्र अस्तु समीचीनं तादृशमेव अत्र अग्रे अत्र श्लोकं त्यजामः अनन्तरम् तस्मात् आरभ्य
महोदय प्रश्नः अस्ति अत्र अतिशेते इति शब्दस्य पर्यायशब्दः किं वयं व्यतिक्रामति इति उपयोक्तुं
अत्र
शक्नोमि खलु
अत्र यत् अतिशेते इत्युक्ते अधिकम् इति अर्थे अत्र अधिकम् इति अर्थे आगच्छति अति इति अधिकं सूचयति यत्किमपि दुःखम् अधिकं भवति अथवा सुखम् अधिकं भवति द्वयोर् अत्र किमस्ति तुलनात्मकशब्दः अस्ति भगिनि अतिशेते इति अतिशयनम् इत्युक्ते अधिकम् इति अर्थे आगच्छति अधिकम् अत्र कस्यापि अत्र अत्र तुलनाप्रसङ्गे यदा अत्र विषयद्वयस्य तुलना अथवा गुणद्वयस्य तुलना तदानीम् एकम् अधिकम् अन्यद् न्यूनम् अत्र अधिकम् अस्ति इति कथने अतिशेते इति वदेम अस्तु अस्तु अत्र
महोदय अत्र मरणम् अपकीर्तिः द्वयोः अपेक्षया अपकीर्तिः अतिशेते इति अस्ति अर्थः खलु अधिकम्
अपकीर्तिः मरणम् अपि अतिशेते इत्युक्ते अत्र अत्र यदि दुःखविषयम् अस्ति तदानीम् अत्र अपकीर्तिः दुःखप्रसङ्गे अतिशेते इति तादृशमपि नेतुं शक्नुमः परं अत्र अहं विपरीतक्रमेण उक्तवान् अत्र मरणम् इति समुचितम् इति अर्थे उक्तवान् किल अपकीर्तेः अपेक्षया मरणम्
उचितं समीचीनं
तस्मिन् अर्थे परन्तु यद् भवान् उक्तवान् तदपि समीचीनमेव अत्र किमस्ति अत्र अपकीर्तिः अधिकं दुःखं ददाति अतः तद् अतिशेते तदानीं मरणं समुचितं भवति इति मम कथनस्य आशयः अस्तु अस्तु अग्रे हे अनघ तस्मादारभ्य महोदय पठतु भवानेव
हे अनघ इदं गुह्यतम गुह्यतमं शास्त्रम् इति मया उक्तं हे भारत एतत् बुद्ध्वा बुद्धिमान् मनुष्यः कृतार्थः भवेत् एतस्मिन् श्लोके एतत् शास्त्रं सर्वेषु शास्त्रेषु अत्यन्तं रहस्यमयम् एतत् ज्ञानं सुलभतया प्राप्तुं न शक्यम् अभिप्रायं प्रतिपादयितुं गृह्यताम् इति शब्दस्य प्रयोगः कृतः अस्ति उगियतमं शास्त्रम् इति मया उक्तम् एतत् बुद्धिमान् मनुष्यः कृतार्थः भवेत् एतस्मिन् श्लोके एतत् शास्त्रं सर्वेषु शास्त्रेषु अन्त्यतमं रहस्यमयम् एतत् ज्ञानं
अत्यन्तं रहस्यमयम् अत्यन्तम्
अत्यन्तं रहस्यमयम्
सर्वेषु शास्त्रेषु इदं शास्त्रम् अत्यन्तं रहस्यमयम् इति अत्र किम् अस्ति तुलना कीदृशी तुलना अस्ति अत्र बहवः बहूनि शास्त्राणि सन्ति बहूनि शास्त्राणि सन्ति तेषु इदं शास्त्रम् अत्यन्तं रहस्यमयम् अत्यन्तं गुह्यमयम् इति अत्र अधिकम् अत्र रहस्यमयम् इत्युक्ते किम् अत्र रहस्यमयम् इत्युक्ते रहस्यमयम् इत्युक्ते अत्र किमस्ति बहवः न जानन्ति रहस्यं तादृशम् अस्ति किल यत् सर्वे न जानन्ति केचन योग्यजनाः एव जानन्ति तदानीं वदेम तद् रहस्यम् इति अत्र अस्तु गुह्यम् इत्युक्ते रहस्यं शास्त्रं रहस्यं रहस्यमयं मयम् इत्यनेन पूरितं भवति इति कथनस्य आशयः शास्त्रं रहस्यमयम् परन्तु अत्र तुलना कीदृशी अस्ति अनेकानि शास्त्राणि सन्ति तानि सर्वाणि अपि रहस्यमयानि एव अस्तु तानि सर्वाणि अपि रहस्यमयानि एव परन्तु तेषु एकं शास्त्रम् अस्ति अत्यन्तं रहस्यमयम् तदानीम् अत्र गुह्यतमम् इति पदस्य प्रयोगः भवति यदा गुह्यतरम् अत्र पुनः अतिशयनम् अत्र अनेकेषु शास्त्रेषु एकं शास्त्रं रहस्यमयप्रसङ्गे अतिशेते अतः अत्र गुह्यतमम् इति पदस्य प्रयोगः कृतः अस्ति इति कथनस्य आशयः अस्तु अत्र अन्यत् किमपि वदनीयं महोदय
गुह्यतमं रहस्यमय अत्यन्तं रहस्यमयं समानार्थ एव
गुह्यतमम् इत्युक्ते अत्र अत्यन्तं रहस्यमयम् इति अपि च अत्र अत्यन्तं रहस्यमयं कदा वदेम यदा एकस्य विषयस्य तुलना अनेकानां विषयाणां प्रसङ्गे भवति अत्र शास्त्रस्य प्रसङ्गः अस्ति यत्किमपि शास्त्रं भगवान् कृष्णः अवदत् अर्जुनम् उद्दिश्य तद् शास्त्रं अनेकेषु शास्त्रेषु प्रसङ्गे अनेकानां शास्त्राणां प्रसङ्गे यद् शास्त्रं कृष्णः अवदत् अर्जुनम् उद्दिश्य तद् शास्त्रम् अत्यन्तं रहस्यमयम् अस्ति तदानीं वदेम इदं शास्त्रं गुह्यतमम् इति अत्र गुह्य इत्युक्ते रहस्य गुह्यम् इत्युक्ते रहस्यं गुह्यतमम् इति इत्युक्ते अत्र अनेके सन्ति तेषु इदं रहस्यप्रसङ्गे गुह्यप्रसङ्गे अतिशेते इत्युक्ते अधिकं गुह्यमयम् अस्ति अत्यन्तं गुह्यमयम् अस्ति तदानीं गुह्यतमम् इति वदेम आहत्यत्र विषयः कः विषयद्वयं प्रतिपादितम् अस्ति अत्र मुख्यविषयः अस्ति विषयानां मध्ये अत्र स्वभावप्रसङ्गे काचन तुलना यत्र द्वयोः विषयोः प्रसङ्गे एकम् अतिशेते तदानीम् अत्र किमस्ति अत्र दुःखतरम् इति एतादृशपदस्य प्रयोगः भवति अत्र किम् अधिकं दुःखं ददाति तद् दुःखतरं भवति किम् अधिकं सुखं ददाति विषयद्वये तद् सुखतरं भवति किम् अधिकम् आनन्दं ददाति तद् द्वयोः विषये तदानीम् अत्र तद् आनन्दतरं भवति यदि अत्र अनेके विषयाः सन्ति तेषु एकः अधिकं सुखं ददाति तदानीं वदेम इदं सुखतमम् अस्ति अधिकम् आनन्दम् अनेकेषु तदानीम् इदम् आनन्दतमम् अधिकं दुःखम् अनेकेषु तदानीम् इदं दुःखतमम् आहत्यत्र कथनस्य आशयः अस्ति प्रत्ययद्वयं वर्तते संस्कृतभाषायाम् एकः अस्ति तरप् तरप् इति एकः प्रत्ययः द्वितीयः प्रत्ययः अस्ति तमप् तरप् प्रत्ययस्य प्रयोगः प्रातिपदिकात् परं भवति यदा दुःख सुख आनन्द एतानि प्रातिपदिकानि तेभ्यः परः तरप्रत्ययस्य प्रयोगः भवति तदानीं पकारस्य लोपः भवति हलन्त्यम् इत्यनेन तस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः भवति आहत्य तर दुःखतर सुखतर आनन्दतर एतादृशानि पदानि निष्पादयामः अस्तु समीचीनम् अस्य प्रयोगः कदा भवति यदा विषयद्वयोर्मध्ये एकस्य चिन्तनम् एकम् अतिशेते एकस्य प्रसङ्गः अधिकः भवति तदानीं तरप् इत्यस्य प्रयोगः भवति तमप् इति अन्यः प्रत्ययः तस्मिन् अपि पकारस्य इत्संज्ञा भूत्वा लोपः भवति अच केवलं तम इति अवशिष्यते तदानीं किं भवति अस्य प्रत्ययस्य प्रयोगः अपि प्रातिपदिकात् परः भवति तदानीं सुख दुःख आनन्द एतानि प्रातिपदिकानि तेभ्यः परः आहत्य सुखतम दुःखतम आनन्दतम इदानीं तरप् तमप् प्रत्यययोः योजनेन यद् प्राप्नुमः तस्य अपि प्रातिपदिकसंज्ञा भवति अस्तु प्रातिपदिकसंज्ञा भवति इदानीं यद् पदं प्राप्नुमः तद् पदं विशेषणं भवति विशेषणम् इति मत्वा आधिक्येन तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति अत्र तमं दुःखतमं सुखतमम् आनन्दतमं यदा वदेम तदानीं नपुंसकलिङ्गपदस्य प्रयोगः अस्ति इदम् अत्यन्तं सुखमयम् अत्र अनेके सुखमयविषयाः सन्ति तेषु इदं अत्यन्तं सुखमयं तदानीं वदेम सुखतमं परन्तु विषयद्वयं द्वयोर्मध्ये एकम् अधिकं सुखं ददाति तदानीं सुखतरम् इति भवति पदम् अत्र तरप् तमप् अनयोः प्रत्यययोः मेलनेन अत्र तादृशन्त तादृशानि पदानि निष्पन्नानि भवन्ति अपि च अत्र प्रयोगः कस्मिन् अर्थे भवति इति निर्दिष्टः अस्ति तरप् इत्यस्य प्रयोगः यत्र तुलनाविषयद्वयोर्मध्ये अपि च विषयद्वयमपि तादृशं यत्किमपि भवतु ददाति परन्तु द्वयोर्मध्ये एकम् अधिकम् इति चिन्तनप्रसङ्गे तरं तरप् इत्यस्य प्रयोगः अनेकेषु एकम् अधिकं तदानीं तमप् इत्यस्य प्रयोगः भवति यद् ददाति तस्य अन्ते तरप् अथवा तमप् सुखं ददाति सुखतरम् अथवा सुखतमं दुःखं ददाति तदानीं दुःखतरम् अथवा दुःखतमम् आनन्दं ददाति आनन्दतरम् अथवा आनन्दतमम् इति तादृशम् अस्ति अत्र चिन्तनम् अपि च तरप् अपि च तमप् प्रत्ययद्वयम् अपि तद्धितप्रत्ययं तद्धित् तद्धितप्रत्ययद्वयम् अस्ति द्वौ प्रत्ययौ अपि तद्धितौ अत्र तद्धितप्रत्ययस्य योजनं कस्मात् परं भवति प्रातिपदिकात् परं भवति अपि च तद्धितप्रत्ययस्य योजनेन यद् प्राप्नुमः तस्य अपि प्रातिपदिकसंज्ञा भवति केन सूत्रेण वयं जानीमः अत्र तद्धितप्रत्ययस्य योजनेन यद् प्राप्नुमः तदपि प्रातिपदिकं भवति इति कथं वा जानीमः अत्र एकं कृतद्धितसमासाश्च इत्यनेन सूत्रेण अत्र तद्धितप्रत्ययस्य योजनेन यत् प्राप्नुमः तस्य प्रातिपदिकसंज्ञा भवति इत्युक्ते अत्र सुप्रत्ययानां योजनं भवति तत् सुप्रत्ययस्य योजनेन किं प्राप्नुमः अत्र पदं प्राप्नुमः सुप्तिङन्तं पदम् इत्यनेन अस्तु समीचीनं पदं भवति अत्र अस्तु तमप् योजनेन यद् प्राप्नुमः तद् विशेषणम् अस्ति इति कारणतः आधिक्येन त्रिषु लिङ्गेषु भवन्ति इति प्रश्नः कः
अत्र उपरि लिखितमस्ति अत्र जीवने अपकीर्तिः मित्रैः अवमानः शत्रुभिः निन्दनम् इत्येतत् अवेक्षया अपेक्षया अधिकं दुःखं नास्ति एव इति वक्तुं दुःखतरम् इति शब्दस्य प्रयोगः कृतः अस्ति अत्र मित्रैः अवमानः शत्रुभिः निन्दनं द्वयोः अपेक्षया शत्रुभिः निन्दनम् अधिकं दुःखतरम् इति अस्ति अर्थः
न अत्र अपकीर्तिः मित्रैः अवमानः शत्रुभिः निन्दनम् इत्येतदपेक्षया इत्युक्ते अत्र विषयत्रयम् उक्तमस्ति जीवने अपकीर्तिः इति अधिकं दुःखं ददाति इति कथनस्य आशयः मित्रैः अवमानः अपि अधिकं दुःखं ददाति शत्रुभिः निन्दनम् अपि अधिकं दुःखं ददाति अत्र विषयस्य पृथक्करणं करणीयम् अत्र अत्र मित्रैः जीवने अपकीर्तिः तेन यद् दुःखं प्राप्नुमः तद्दुःखम् अत्र यदा अपकीर्तिः न भवति अन्यत् किमपि कोऽपि विषयः अस्ति द्वयोर्मध्ये इदानीम् अत्र अत्र अन्यद् इत्युक्ते एकः विषयः अपकीर्तिः इति एकः विषयः अन्यः इति अन्यः विषयः द्वयोर्मध्ये किम् अधिकं दुःखं ददाति इति प्रश्ने सति अपकीर्तिः अधिकं ददाति अतः अत्र अपकीर्तिः अत्र इति विषयः अत्र अतः दुःखतरम् इति पदस्य प्रयोगः कृतः अस्ति अत्र अत्र त्रयाणां मध्ये अत्र तुलना नास्ति अत्र पृथक् करणीयं भवति अपकीर्तिः दुःखतरं भवति अन्यस्य मित्रैः अवमानः इति अन्यस्य अपेक्षया दुःखतरं भवति शत्रुभिः निन्दनम् अपि अन्यस्य अपेक्षया दुःखतरं भवति इति कथनस्य आशयः इत्येतद् इति उक्तमस्ति अत्र इत्येतद् अत्र विषयत्रयं परन्तु अत्र तेषां पृथक्करणं करणीयम् अत्र अवमानः इति दुःखतरम् निन्दनम् इति दुःखतरम् अपकीर्तिः इति दुःखतरम् इति कथनस्य आशयः अन्यस्य अपेक्षया यत्किमपि अन्यः विषयः भवतु तदपेक्षया अपकीर्तिः दुःखतरम् तदपेक्षया अवमानः दुःखतरम् तदपेक्षया निन्दनम् इति दुःखतरम् इति कथनस्य आशयः अत्र अत्र प्रयोगः तादृशः कृतः अस्ति अस्तु
महोदय अतः उदाहरणेन शत्रुभिः निन्दनं यत् दुःखं ददाति तत् मरणम् अपेक्षया दुःखतरम् अस्ति इति स्वीकर्तुं शक्यते किम्
मरणमेव उत्तममस्ति युद्धभूमौ मृत्युः भवति चेत् तदेव उत्तमम् अत्र अपकीर्तिः अपि च मरणं द्वयोर्मध्ये अपकीर्तिः दुःखतरम् मरणम् उत्तमतरम् इति कथनस्य आशयः अस्तु अस्तु अग्रे सरेम इदानीम् अत्र जानीत यद् इदानीं पर्यन्तम् अहम् उक्तवान् तदेव अत्र स्थापितमस्ति जानीत इत्यस्मात् आरभ्य एकवारं तत्रापि पठिष्यामः मल्लर् भगिनी पठितुमिच्छति वा भगिनी अद्य
आं महोदय
पठतु
जानीत तर तम प्रत्ययौ अतिशयार्थं दर्शयितः द्वयोः एकस्मिन् अतिशयं दर्शयितुं तरप् प्रत्ययस्य प्रयोगः क्रियते बहूनाम् एकस्मिन् अतिशयं दर्शयितुं तमप् प्रत्ययस्य प्रयोगः क्रियते एतौ प्रत्ययौ प्रातिपदिकस्य अन्ते योज्येते तरप् प्रत्यये द्वयोः एकस्मिन् अतिशयम् इति उक्तसमये प्रयोगः क्रियते तमप् प्रत्यये बहूनि विषयाणि सन्ति चेत् तस्मिन् एकस्य अतिशयं प्रदर्शयितुं क्रियते प्रयोगं क्रियते इति उक्तं महोदय प्रातिपदिकं तरप् प्रत्ययान्तं तमप् प्रत्ययान्तं यथा उन्नततर उन्नततम प्राचीन प्राचीनतर प्राचीनतम सुन्दर सुन्दरतर सुन्दरतम स्थूल स्थूलतर स्थूलतम विशाल विशालतर विशालतम कृश कृशतर कृशतम इति उदाहरणम् अस्ति. उन्नततर द्वयोः विषयोः आदिशयं प्रदर्शयितुं क्रियते. उन्नततम इति बहूनि विषयाणि अस्ति चेत् एकस्मिन् आदिशयं प्रदर्शयितुं क्रियते. तदेव
प्राचीन उत्तमं भगिनि. तावदेव अत्र विषयः इति पुल्लिङ्गशब्दः, अतः बहवः विषयाः. विषयः इति पुल्लिङ्गशब्दः, न तु नपुंसकलिङ्गशब्दः. अस्तु, समीचीनम्. अत्र पश्यतु, उन्नत प्राचीन सुन्दर स्थूल विशाल कृश एतानि विशेषणानि किल स्वभावस्य प्रदर्शनं. किमपि विशेषे विशिष्यते, यत्किमपि विशिष्यते अनेन विशेषणेन, अतः एतानि सर्वाणि विशेषणानि. अत्र यदा तर अपि च तम प्रत्ययस्य योजनं भवति, यद् प्राप्नुमः तदपि विशेषणम् एव, परन्तु अतिशयं उक्तं भवति द्वयोः योजनेन. अत्र एकः विषयः इतोपि अधिकः इति, तादृशः स्वभावः अधिकः, तादृशः स्वभावः अस्ति. अत्र उन्नत, अत्र पुरुषद्वयं द्वौ अपि उन्नतौ, परन्तु द्वयोः एकः इतोपि उन्नतः. तदानीम् अत्र किं वदेम, उन्नततरः. अत्र अत्र चिन्तयतु, अत्र रामः अस्ति, श्यामः अस्ति, द्वयोर्मध्ये अत्र रामः उन्नतः, श्यामः अपि उन्नतः, परन्तु द्वयोर्मध्ये यदि श्यामः इतोपि उन्नतः, उन्नतविषये इतोपि अधिकः उन्नतः अस्ति इति कारणतः रामश्यामयोः श्यामः उन्नततरः इति वदेम. यदि अत्र रामश्याम अपि च रामः श्यामः अपि च कृष्णः जनत्रयं वर्तते, तेषु कृष्णः इतोपि अधिकः उन्नतः, तदानीं रामश्याम कृष्णाः ये सन्ति तेषु कृष्णः उन्नततमः भवति इति कथनस्य आशयः. अत्र उन्नतस्वभावः त्रिषु अपि अस्ति, परन्तु कृष्णः इतोपि उन्नतः. उन्नतस्वभावः द्वयोः अपि अस्ति, परन्तु द्वयोः एकः उन्नततरः इति कथनस्य आशयः. तत्र तरप् अपि च तमप् तादृशमेव कृशः, स्थूलः, विशालः, सुन्दरः, अत्र एतानि विशेषणानि इति कारणतः पुल्लिङ्गे एव भवन्ति इति न, स्त्रीलिङ्गे अपि भवन्ति. अत्र सुन्दरतर इति प्रातिपदिकमस्ति, परन्तु इदानीं सुन्दरतरा इति स्त्रीलिङ्गे भवति, सुन्दरतमा इति स्त्रीलिङ्गे भवति. पुल्लिङ्गे सुन्दरतरः, सुन्दरतमः. नपुंसकलिङ्गे सुन्दरतरं, सुन्दरतमम् इति भवति. अस्तु, इदानीम् अग्रे पठेम. अयमेव विषयः इति अग्रे उक्तः अस्ति. सुमित्रा भगिनी.
आमाम्. अग्रेपि
पठतु अग्रे पठतु दीर्घ दीर्घतर
दीर्घतर दीर्घतम विरल विरलतर विरलतम अत्रापि द्वयोर्मध्ये मध्ये यत् उन्नतमस्ति तद् दीर्घतर इत्यपि बहवः विषयः सन्ति इत्यस्य कृते श्रेष्ठः दीर्घतमः इति तावदेव विरल अग्रे सरेम
अग्रे सरतु
त्रिषु लिङ्गेषु रूपाणि इमानि एकवचनं द्विवचनं बहुवचनम् इत्यस्य क्रमे पुल्लिङ्गस्त्रीलिङ्गे नपुंसकलिङ्गे उन्नतः उन्नतौ उन्नताः उन्नता उन्नते उन्नताः उन्नतम् उन्नते उन्नतानि उन्नततरशब्दस्य त्रिषु लिङ्गेषु रूपाणि इमानि एकवचनं द्विवचनं बहुवचनम् पुल्लिङ्गे स्त्रीलिङ्गे अपि उन्नततरौ उन्नततराः उन्नततरा उन्नततरे उन्नततराः उन्नततरम् उन्नततरे उन्नततराणि उन्नततमशब्दस्य अपि त्रिषु लिङ्गेषु रूपाणि उन्नततरशब्दस्य इव इति ज्ञेयम् उन्नततर अपि च उन्नततम इत्यस्य त्रिषु लिङ्गेषु अपि क्रमः सदृशं भवति इति अत्र
अस्तु भगिनि समीचीनम् अस्ति इदानीम् अत्र अग्रे सरेम अस्ति इदानीं लक्ष्मी भगिनी
आं महोदय उन्नतम् उन्नततम शब्दस्य अपि त्रिषु लिङ्गेषु रूपाणि उन्नततरशब्दस्य इव इति ज्ञेयम् एतानि उदाहरणानि परिशीलयत अस्माकं प्राङ्गणे उन्नताः वृक्षाः सन्ति तेषु आम्रतिन्त्रिणी नारिकेलवृक्षाः उन्नततमाः अस्मिन् अस्माकं प्राङ्गणे उन्नताः वृक्षाः सन्ति इत्युक्ते मम गृहे बहवः वृक्षाः सन्ति तेषु आम्रतिन्त्रिणी नारिकेलवृक्षाः उन्नततमाः सन्ति तेषां त्रीणि वृक्षाः उन्नततमाः इत्युक्ते तेषां उन्नतं बहु बहु अस्ति इति अत्र उक्तम् अत्र बहवः वृक्षाः सन्ति तेषु त्रीणि त्रयः वृक्षाः उन्नत उन्नत स्वरूपे सन्ति इति उक्तमस्ति अतः तम इति प्रत्ययस्य उपयोगं कृतं किमर्थम् इत्युक्ते बहवः वृक्षाः सन्ति तेषु केवलं त्रीणि त्रयः वृक्षाः एव उन्नततमाः सन्ति इति कारणतः साधु किं महोदय
एकाधिक अपि तम प्रत्ययं प्रयोगं कर्तुं शक्यते वा अत्र त्रीणि
अत्र किमस्ति अत्र अत्र आम्रवृक्षम् अत्र अनेके वृक्षाः सन्ति ते सर्वे उन्नताः तेषु अत्र आम्र तिन्त्रिणी नारिकेलवृक्षाः उन्नततमाः इत्युक्ते अत्र आम्रवृक्षम् उन्नतम् अस्ति अन्येषाम् अपेक्षया तिन्त्रिणी अपि उन्नतम् अस्ति नारिकेलवृक्षः अपि उन्नतः अस्ति परन्तु त्रयः अपि उन्नताः अतः ते उन्नततमाः इति इत्युक्ते अन्ये सर्वे अत्र उन्नताः न सन्ति उन्नताः सन्ति परन्तु अत्र अतिशयेन उक्तं किल इत्युक्ते आम्रवृक्षम् उन्नतम् अस्ति अन्येषाम् अपेक्षया तिन्त्रिणी अपि अन्येषाम् अपेक्षया नारिकेल अपि अन्येषाम् अपेक्षया परन्तु अत्र विषयस्य अवगमनं किम् अत्र वृक्षत्रयस्य चिन्तनं त्रयः वृक्षाः उन्नततमाः इति तेषु एकः इतोपि उन्नतः भवेत् परन्तु अन्येषाम् अपेक्षया ये त्रयः उन्नताः अतः उन्नततमाः इति अस्तु भगिनि
आं महोदय
अत्र अन्ये सर्वे उन्नताः सर्वे उन्नताः तदानीमेव अत्र यदि लघुवृक्षः अस्ति तदानीमत्र तुलना एतादृशी न भवति अत्र सर्वे उन्नताः तेषु एते त्रयः इतोपि अधिकोन्नताः अतः एते उन्नततमाः इति वदेम परन्तु इदानीम् अग्रे पठिष्यामः अत्र पुनः त्रयाणां मध्ये अत्र तुलना अस्ति तदानीं विषयः भिन्नः भवति अस्तु अत्र भवती एव पठतु द्वितीयं वाक्यम्
आम्र तिन्त्री वृक्षयोः तिन्त्री वृक्षः उन्नततरः अतः तरप्रयोगः
इति इदानीं किम् अत्र तुलना द्वयोर्मध्ये अस्ति आम्र तिन्त्रिणी वृक्षयोर्मध्ये तुलना अस्ति द्वौ अपि उन्नतौ परन्तु द्वयोर्मध्ये एकः अधिकोन्नतः अस्ति अतः सः उन्नततरः सः उन्नततरः द्वयोर्मध्ये यदि तुलना अस्ति अस्तु अपि च पूर्वस्मिन् वाक्ये तम इत्यस्य प्रयोगः किमर्थं कृतमस्ति अत्र अनेके वृक्षाः सन्ति तेषु कश्चन उन्नतः अस्ति अतः तमप्रत्ययस्य प्रयोगः परन्तु एकः एव अधिकः उन्नतः नास्ति अत्र वृक्षत्रयम् अस्ति इत्युक्ते बहवः वृक्षाः सन्ति ते उन्नताः अधिकोन्नताः अतः बहुवचनस्य प्रयोगः कृतः अस्ति अस्तु यदि केवलम् अत्र वक्तुमिच्छामः अत्र अस्माकं प्राङ्गणे उन्नताः वृक्षाः सन्ति तेषु तिन्त्रिणी नारिकेलवृक्षौ उन्नततमौ इति वक्तुं शक्नुमः किमर्थम् इदानीं द्वयस्य चिन्तनमस्ति नारिकेलवृक्षः अपि च तिन्त्रिणीवृक्षः द्वौ अपि उन्नततमौ अधिकोन्नतौ इति कारणतः अस्तु अत्र अस्ति तुलना कयोर्मध्ये अस्ति अथवा केषां मध्ये अस्ति तेषु एकः द्वौ अथवा अधिकाः अनेके तदाधारेण कस्मिन् वचने भवति अत्र तुलनाप्रसङ्गे कति सन्ति इति चिन्तनम् एकम् अत्र विषयद्वयोर्मध्ये तुलना अस्ति द्वयोर्मध्ये एकः अस्तु तदानीम् अत्र किं कुर्मः तरप्रत्ययस्य प्रयोगः भवति अत्र अनेके सन्ति तेषु एकः तदानीं तमः परन्तु अत्र कति विषयाः अतिशयेन अधिकाः तदाधारेण तरप् समपदस्य वचनप्रयोगः कृतः भवति अस्तु
महोदय प्रश्नः अस्ति अत्र तमप्रत्ययस्य विषयः सम्यक्तया अवगतं महोदय परन्तु तरविषये प्रश्नः अस्ति यदि वयं केवलं विषयद्वयस्य तोलनं कुर्मः तर्हि तत्र बहुवचनस्य अथवा एकवचनस्य उपयोगं द्विवचनस्य अथवा बहुवचनस्य उपयोगं कीदृशं भवेत्
इदानीमत्र महिलाः पुरुषाः समीचीनम् उदाहरणं न स्यात् परन्तु तादृशं चिन्तनं करोतु महिलाः पुरुषाः अत्र महिलाः पुरुषाः इदानीं सर्वे उन्नताः इति चिन्तयतु एकस्मिन् वर्गे महिलाः सन्ति पुरुषाः सन्ति ते सर्वे उन्नताः परन्तु द्वयोः समूहयोः मध्ये पुरुषाः अधिकोन्नताः तदानीं किं भवति अत्र
उन्नततराः
उन्नततरौ इति भवेत् किल उन्नततरा क्षम्यताम् उन्नततराः भवेत् अत्र पुरुषाः उन्नततराः इति अस्तु भगिनि महिलाः सन्ति
न महोदय न अवगतं महोदय क्षम्यताम् अहं
पुरुषाः अन्यः समूहः अत्र द्वयोर्मध्ये तुलना अस्ति तदानीम् अत्र किमस्ति अस्माकं वर्गे उन्नताः महिलाः पुरुषाः सन्ति तेषु पुरुषाः उन्नततराः इत्युक्ते किम् अत्र द्वयोर्मध्ये अत्र महिलापुरुषयोर्मध्ये पुरुषाः उन्नततराः इदानीं विषयः अवगतः अत्र अस्माकम्
आं महोदय अत्र तोलनं केवलं विषयद्वयस्य मध्ये एव भवेत्
मध्ये एव भवेत् परन्तु विषयद्वये अत्र समूहस्य प्रसङ्गः अस्ति समूहः अत्र एकवचने भवितुम् अर्हति बहुवचने अपि भवितुम् अर्हति किल
कथं प्रयोग कृतः महोदय उन्नततरौ
उन्नततरौ इति यदि अत्र उन्नततरौ इदानीम् अत्र बालकाः सन्ति अपि च बालकाः सन्ति युवकाः सन्ति पुरुषाः सन्ति प्रौढाः सन्ति इति चिन्तयतु इदानीम् अत्र बालकाः अपि च युवकाः सन्ति वर्गे अत्र अस्तु इदानीं किमस्ति अत्र ते अत्र बालकाः उन्नताः सन्ति युवकाः अपि उन्नताः सन्ति इति चिन्तयामः तदानीं किमस्ति अत्र अत्र द्वयोर्मध्ये तुलना अस्ति ते अत्र द्वयोः समूहयोः अत्र बालकद्वयम् इतोपि उन्नताः बालकद्वयम् इतोपि उन्नतः इति चिन्तयामः तदानीं किं भवति अत्र अत्र तयोः नाम अस्ति रामः श्यामः तदानीं किं वदेम अस्माकं वर्गे समूहद्वयं बालकाः अपि च युवकाः द्वयोः समूहयोः अत्र अत्र रामश्यामौ उन्नततरौ अस्तु भगिनि इति एतादृशः प्रयोगः प्रायः विरलः भवेत् परन्तु तादृशी व्यवस्था अस्ति कथनस्य प्रसङ्गे अस्तु अस्तु अत्र सन्दर्भानुसारम्
द्वौ समूहस्य चिन्तनं भवेत् वा
समूहद्वयं द्वयोर्मध्ये तुलना अस्तु तेषु अत्र बालकद्वयम् अथवा युवकद्वयम् इति कथनस्य आशयः तदानीम् अत्र समूहद्वयं परन्तु द्वौ उन्नततरौ तादृशं चिन्तनं कर्तुं शक्नुमः प्रायः
महोदय
तु वर्तते एव संस्कृतभाषायां यत्किमपि पदं नयतु अव्ययं नास्ति इति चिन्तयन्तु पदम् अव्ययं नास्ति चेत् अत्र किमस्ति नामवाचकपदमस्ति चेत् अत्र तस्य रूपाणि त्रिषु वचनेषु भवन्ति एव अत्र दधि इति पदमस्ति नपुंसकलिङ्गपदं मधु इति नपुंसकलिङ्गपदमस्ति वारि इति नपुंसकलिङ्गपदमस्ति अत्र किमस्ति अत्र त्रयाणाम् अपि अत्र वचनत्रयं वर्तते किल भगिनि अस्तु अत्र सन्दर्भानुसारम् आवश्यकता अस्ति चेत् द्विवचने बहुवचने वदेम नो चेत् एकवचने अत्र समूहः इति नीत्वा एकवचने परन्तु बिन्दवः इति नीत्वा बहुवचने अथवा द्विवचने अथवा एकवचने वक्तुं शक्नुमः अत्र तादृशी व्यवस्था अस्ति भाषायाम् इति कथनस्य आशयः अस्तु अन्यः
एतत् वाक्यं समीचीनं महोदय सीता
एकनिमेषः भगिनि अस्तु महोदय किमपि वक्तुमिच्छति वा
महोदय अत्र एकस्मिन् पक्षे बालकौ द्वौ स्तः अपरस्मिन् पक्षे बालिकौ द्वे स्तः द्वयोः अपेक्षया बालकौ उन्नतः इति वक्तुं शक्नुमः
परन्तु
बालकौ द्वयोः मध्ये एकः उन्नततरः इति वक्तुं शक्नुमः
इति अत्र वर्गीकरणं कीदृशं कृतमस्ति अत्र प्रत्येकस्मिन् वर्गे कति सन्ति एतत् सर्वम् उपयुज्य अत्र वाक्यरचना अपि च तर अथवा तम अन्तपदयोः प्रयोगः भवति इति कथनस्य आशयः अस्तु भगिनी वदतु
इदानीं सीता रमा अत्र सुन्दरतरौ इति सम्यक् अस्ति वा सुन्दरतरौ
अत्र सीता अत्र
अस्मिन् वर्गे सुन्दरतरौ
एकनिमेषः इदानीमत्र सुन्दरतरौ अत्र अत्र पुनः वदतु भगिनि वाक्यं
सीता रमा अस्मिन् वर्गे सुन्दरतरौ
सीता रमा अत्र महिलाद्वयम् इदानीम् अत्र अत्र द्वयोर्मध्ये तुलना नास्ति किल भगिनि द्वे अपि सुन्दर्यौ अत्र सीता सुन्दरी अस्ति रमा सुन्दरी अस्ति द्वे अपि सुन्दरी अतः सीता रमा च सुन्दर्यौ इति वदेम किल भगिनि इदानीमत्र तुलना नास्ति द्वयोर्मध्ये केवलं विषयस्य प्रतिपादनमस्ति द्वे अपि अत्र सुन्दर्यौ इति कथनस्य आशयः अत्र तुलना नास्ति अत्र अन्यः कोऽपि आगच्छति तदानीमेव तुलना भवति किल तुलना यदा भवति तदानीमेव अत्र यदि केवलं सुन्दरः अथवा सुन्दरम् अथवा सुन्दरी तदानीं कस्यचित् अत्र स्वभावः कीदृशः अस्ति इति कथनं भवति तावदेव परन्तु यदा तस्मिन् स्वभावे कश्चन अतिशयेन इत्युक्ते अधिकं प्रदर्शयति तदानीमेव तर अथवा तम अनयोः प्रत्ययान्तयोः पदयोः प्रयोगः भवति इति कथनस्य आशयः अस्तु अनेकानि उदाहरणानि सन्ति अग्रे सरेम इदानीम् अस्तु अस्तु तृतीयं वाक्यमत्र सुमित्रा भगिनी भवती पठतु
काव्येषु
न न आम्रतिन्त्रिणी नारिकेलवृक्षेषु
आम्रतिन्त्रिणी नारिकेलवृक्षेषु नारिकेलवृक्षः उन्नततमः अत्र त्रयः सन्ति आम्रवृक्षः तन्त्रिणीवृक्षः अपि च नारिकेलवृक्षः तेषु नारिकेलवृक्षः उन्नतः इति कथनस्य आश्रयस्य कृते तमप्रत्ययः अत्र
सः उन्नतः अस्ति एव परन्तु यत्र तुलना भवति अधिकः उन्नतः अस्ति त्रिषु अयम् अधिकः उन्नतः
त्रयमपि उन्नतः तेषु अधिक उन्नतः अस्ति इति इत्यस्य कृते उन्नततमः
त्रयाणां तुलना अस्ति तेषु एकः अधिकः उन्नतः अस्ति त्रयः अपि उन्नताः तेषु एकः अधिकः उन्नतः अतः अयम् उन्नततमः अत्र द्वौ स्तः द्वयोः मध्ये एकः द्वौ अपि उन्नतौ द्वयोर्मध्ये एकः अधिकः उन्नतः तदानीम् उन्नततराः अत्र अस्तु इति अत्र कथनस्य आशयः अस्तु अग्रे अग्रे सरेम जानीता अस्तु महोदय पठतु
महोदय जानीत तरप्तम तमप्रत्ययौ अतिशयार्थं दर्शयतः अतः तदन्तः शब्दः विशेषणं भवति सः विशेषणविषयनियमावसात् विशेष्यस्य लिङ्गं वचनं विभक्तिं च अनुसरति तरप्तमप्रत्ययः अतिशयार्थम् अधिकं दर्शयितुं तरप्तमप् इत्यस्य प्रयोगः कृतः अस्ति अतः तदन्तः शब्दः विशेषणं भवति विशेषणविशेष्य नियमवशात् विशेषस्य लिङ्गं वचनं विभक्तिं च अनुसरति लिङ्गं वचनं लिङ्गं वचनं विभक्तिम् इत्यस्य प्रयोगः अपि अस्ति लिङ्गं वचनं च यथा पर्वतेषु हिमालयः उन्नततमः अस्ति पुल्लिङ्गम् एकवचनं च अतः अन्यत् उन्नततमः इति प्रयुक्तमस्ति नदीषु गङ्गा पवित्रतमा अस्ति त्रिलिङ्गम् एकवचनं च अतः तमा इति एकवचने प्रयुक्तमस्ति नदीषु गङ्गा पवित्रतमा अस्ति काव्येषु रामायणं प्राचीनतमम् अस्ति अत्रापि नपुंसकलिङ्गे एकवचनम् अतः प्राचीनतमम् इति प्रयोगः कृतः अस्ति खगेषु
अग्रे अन्यः पठेत् अस्तु उत्तमम् अत्र बहुषु एकः अपि च विषयः इत्यस्य लिङ्गं किम् अत्र पर्वतानां प्रसङ्गः अत्र हिमालयः इति पुल्लिङ्गे अस्ति बहवः पर्वताः सन्ति ते सर्वे उन्नताः तेषु हिमालयः उन्नततमः हिमालयः इति पुल्लिङ्गे एकवचने अतः हिमालयः उन्नततमः इति वदेम अत्र गङ्गा इति स्त्रीलिङ्गे बहुषु एका बह्वीषु एका स्त्रीलिङ्गे अतः पवित्रतमा बहुषु एकं रामायणं नपुंसकलिङ्गे अतः प्राचीनतमम् इति. अत्र लिङ्गं वचनं किं पदम् अनुसृत्य भवति इत्युक्ते अत्र बहुषु एकः यः अस्ति, बहुषु एका या अस्ति, बहुषु एकं यदस्ति तस्य आधारेण लिङ्गं निर्धारितं भवति. हिमालयः इति पुल्लिङ्गे एकवचने, अतः उन्नततमः इति पुल्लिङ्गे एकवचने. गङ्गा इति स्त्रीलिङ्गे, अतः पवित्रतमा अपि स्त्रीलिङ्गे एकवचने. रामायणं नपुंसकलिङ्गे एकवचने, अतः प्राचीनतमम् अपि नपुंसकलिङ्गे एकवचने इति कथनस्य आशयः अत्र. कस्य विशेषणं भवति इत्युक्ते यद् अतिशयं प्रदर्शयति, यद् अतिशयं प्रदर्शयति तस्य लिङ्गं यदस्ति तमप्रत्ययान्तस्य अपि लिङ्गं तदेव भवति, तरप्रत्ययान्तस्य लिङ्गमपि तदेव भवति. यद् अतिशयं प्रदर्शयति अत्र तस्य वचनम् अनुसृत्य तरप् अपि च तमप् प्रत्ययान्तशब्दस्य वचनं निर्धारितं भवति. अत्र विशेष्यं यदस्ति तदाधारेण तरप् तमप् अपि विशेषणौ प्रत्ययान्तपदे विशेषणे, अतः विशेषणस्य लिङ्गं वचनम् अत्र विशेष्यम् अनुसृत्य भवति इति कथनस्य आशयः. अस्तु, समीचीनम्, अग्रे सरेम. अस्तु, लक्ष्मी भगिनी.
आं महोदय,
वाक्यानि भवति अपि.
अस्तु महोदय, अत्र सम्यक्तया श्रूयते अथवा
समीचीनम्?
अस्तु अस्तु महोदय, धन्यवादः. अस्तु, कगेषु पिककाकौ कृष्णतमौ, अनन्तरं नदीषु गङ्गा यमुने पवित्रतमे स्तः, अनन्तरं काव्येषु रामायणं महाभारतं च प्रसिद्धतमे काव्ये स्तः. अत्र किम् उक्तम् इत्युक्ते बहवः विषयाः सन्ति, तेषु केवलं विषयद्वयम् एव विशिष्टतया उक्तवन्तः. तर्हि तस्य तमप् प्रत्ययस्य द्विवचनम् एव उपयुक्तम् अस्ति. अतः बहवः खगाः सन्ति, तेषु केवलं पिकः अनन्तरं काकः एव कृष्णतरः सन्ति, परन्तु पिककाकौ कृष्णतमौ इति अत्र उपयोगं क्रियते. अनन्तरं
एकनिमेषः, अत्र कृष्णतरः इति किमर्थम् उक्तवती भवती? कृष्णतरः इति किमर्थम् उक्तवती? पिकः कृष्णतरः, काकः
कृष्णः अस्ति, अत्र तरप् प्रत्ययस्य उपयोगम् अपि न भवेत्, केवलं कृष्णः इति वदनीयम्.
पिकः कृष्णवर्णः, काकः अपि कृष्णवर्णः
वर्णः,
अनेके अन्ये खगाः सन्ति ये अपि कृष्णवर्णाः, इत्युक्ते कृष्णवर्णेषु खगेषु इककाकौ कृष्णतमौ इति कथमस्ति.
आम् सत्यम्.
अन्ये अपि कृष्णवर्णा, अन्ये अपि कृष्णवर्णाः, तेषु एतौ द्वौ कृष्णतमौ, इत्युक्ते अत्र पिकस्य कृष्णवर्णः अधिकम् अस्ति, काकस्य अपि अधिकम् अस्ति,
अधिकं
द्वयोर्मध्ये तुलना न.
अस्तु, अवगतम्.
ये सन्ति ते अपि च अनयोः द्वयोः प्रसङ्गः
आम्
अत्र इदानीं किम् अत्र बहवः सन्ति तेषु एतौ अधिकौ कृष्णवर्णौ अतः कृष्णतमौ इति
आम् महोदय तावदेव तादृशमेव नदीषु बहवः नदी बह्वी बह्वः
अत्र किं पदं प्रयुक्तमस्ति आवरणे किं पदं
नदी नदी बहु
आवरणे किं लिखितमस्ति
बह्वीषु
पठितवती तत् किमर्थं न पठितवती भवती आवरणे पठतु
अस्तु नदीषु गङ्गा यमुने पवित्रतमे स्तः स्त्रीलिङ्गं द्विवचनं च बह्वीषु द्वे अतः तमप्रयोगः अत्र न मम प्रश्नः अस्ति बहुशब्दस्य स्त्रीलिङ्गे बहुवचनं एक किम् इति
अस्तु बहुशब्दः त्रिषु लिङ्गेषु भवति
आम्
बहुशब्दः त्रिषु लिङ्गेषु भवति पुल्लिङ्गे बहु गुरुशब्दवत् बहु बहुः बहू बहवः स्त्रीलिङ्गे बह्वी बह्यौ बह्व्यः नदी नदी बह्वी इति प्रातिपदिकं बह्वी बह्यौ बह्व्यः नदी शब्दवत् नपुंसकलिङ्गे बहु बहूनि बहूनि
बहु
नदीषु इति त्रिलिङ्गशब्दः अस्ति तासु इति कथनसमये बह्वीषु नदीषु द्वे पवित्रतमे बह्वीषु इति बह्वी इत्यस्य सप्तमी बहुवचनं नदीषु
अस्तु बह्वी नद्यः सन्ति तेषु
पुनः वदतु वाक्यं
बह्वी नद्यः सन्ति
बहुवचने
बह्वय बह्वः नद्यः सन्ति
बह्व्यः यकारः आगच्छति किल
बह्व्यः
हकारे वकारे यकारः बह्व्यः
बह्व्यः ओके बह्व्यः नद्यः सन्ति बह्वीषु नदीषु गङ्गायमुने पवित्रतमे स्तः इति कथनस्य आशयः
अग्रे काव्येषु
काव्येषु रामायणं महाभारतं च प्रसिद्धतमे काव्ये स्तः नपुंसकलिङ्गं द्विवचनं च बहुषु द्वे अतः तमः प्रत्ययो प्रयोगः उपयुक्तः अस्ति बहवः बहवः काव्यानि बहूनि काव्यानि सन्ति तेषु रामायणं महाभारतं च अति प्रसिद्धतमे काव्ये स्तः इति कथनस्य आशयः
अत्र अत्र बहुषु द्वे
बहुषु द्वे
अतः बहुषु बहुष् इति कारणतः तमप्रत्ययस्य द्वे इति कारणतः द्विवचने अत्र नपुंसकलिङ्गशब्दद्वयं रामायणं महाभारतम् अतः नपुंसकलिङ्गरूपस्य प्रयोगः कृतः
अस्तु महोदय
आशयः अस्तु समीचीनम् अस्ति इदानीं मल्लर् भगिनी अग्रे
आं महोदय प्राणिषु गजाः स्थूलतमाः पुल्लिङ्गं बहुवचनं च बहुषु बहवः अतः तमप्रयोगः बहवः प्राणिनः सन्ति तेषु गजाः स्थूलतमाः इति अत्र गजाः इति बहुवचने सन्ति अतः सुरतमाः इति इति भवति
बहुवचनं
जनेषु बालिकाः चतुरतमाः स्त्रीलिङ्गे बालिकाः चतुरतमाः इति
पठतु अत्र किमस्ति स्त्रीलिङ्गं बहुवचनं
स्त्रीलिङ्गं बहुवचनं च बह्वीषु बह्व्यः अतः तमप्रयोगः अत्र बालिकाः इति बहुवचने अस्ति चतुरतमाः इति अपि बालिकाः
बालिका इति स्त्रीलिङ्गशब्दः अपि च अतः स्त्रीलिङ्गप्रयोगः भवेत् बह्व्यः अत्र अत्र जनः इति जनः अत्र जनाः इति पुल्लिङ्गशब्दः परन्तु इदानीमत्र जनेषु इति बहवः जनाः सन्ति तेषु बालिकाः चतुरतमाः अत्र बह्वीषु बह्व्यः इत्यस्य प्रयोगः उचितः नास्ति यतोहि जनः इत्यस्य प्रयोगः कृतः अस्ति जनः इति पुल्लिङ्गशब्दः
जनेषु जनः
इति जनेषु इति पुल्लिङ्गशब्दः अतः अत्र बह्वीषु इति समीचीनं नास्ति अत्र बहुषु बहवः बहुषु बहुषु बह्व्यः इति अत्र बहुषु बह्व्यः इत्युक्ते जनेषु बहुषु बह्व्यः बालिका बह्व्यः बालिकाः इति कारणतः स्त्रीलिङ्गबहुवचनं बहुषु इति कारणतः तमप्रत्ययान्तप्रयोगः इति अस्तु अनेके जनाः सन्ति तेषु इति कारणतः तमप्रत्ययस्य प्रयोगः अत्र बालिकाः इति उक्तः अस्ति इति कारण उक्तम् अति इति कारणतः बालिकाः इति स्त्रीलिङ्गबहुवचनम् अतः तमप्रत्ययान्तपदस्य प्रयोगः स्त्रीलिङ्गे बहुवचने कृतः अस्ति तमप् किमर्थं जनेषु इति कारणतः तमप्रत्ययस्य प्रयोगः बालिकाः इति कारणतः तमप्रत्ययान्तपदस्य प्रयोगः स्त्रीलिङ्गे बहुवचने कृतः अस्ति इदानीं स्पष्टः
प्रथमवाक्ये गजाः इति बहुवचने अस्ति अतः सुरतमाः इति एव इति अस्ति वा
अत्र किमस्ति तमप्रत्ययः किमर्थं प्राणिषु इत्युक्ते बहुषु प्राणिषु इति कारणतः तमप् बहवः प्राणिनः सन्ति तेषु अतः तमप्रत्ययान्तपदस्य प्रयोगः तेषु गजाः अतिशयं प्रदर्शयन्ति स्थूलप्रसङ्गे गज इति पुल्लिङ्गशब्दः अतः तमप्रत्ययान्तपदस्य प्रयोगः पुल्लिङ्गे भवति अपि च गजाः इति बहुवचने अस्ति इति कारणतः बहुवचने अपि आहत्य तमप्रत्ययान्तपदस्य प्रयोगः पुल्लिङ्गे बहुवचने तमप् किमर्थं प्रयुक्तं बहुषु अनेके बहुषु अनेके स्थूलतमाः इति कथनस्य आशयः बहुषु इति कारणतः तमप् अत्र गजाः इति कारणतः पुल्लिङ्गबहुवचनरूपस्य प्रयोगः तादृशमेव जनेषु बालिकाः इति उक्तः अस्ति. जनेषु इति बहुषु इति कारणतः बालिकाः इति स्त्रीलिङ्गबहुवचनम् इति कारणतः तमप्रत्ययस्य प्रयोगः स्त्रीलिङ्गे बहुवचने. अत्र तमप् किमर्थं बहुषु एकः एका अथवा एकम्. परन्तु यद् अतिशयं प्रदर्शयति तस्य वचनं किं लिङ्गं किं तदाधारेण तमप्रत्ययान्तपदस्य वचनं लिङ्गम् अपि इति कथनस्य आशयः अत्र. अस्तु, अवगतं किल भगिनि? तृतीयं पठतु. पद्येषु
पद्येषु सुभाषितानि मधुरतमानि मधुरतमानि नपुंसलिङ्गं बहुवचनं च बहुषु बहूनि अतः तमप्रयोगः. अत्र बहुषु पद्येषु सन्ति तेषु
बहूनि पद्यानि सन्ति. बहूनि पद्यानि सन्ति तेषु इति कारणतः प्रयोगः. सुभाषितानि इति नपुंसकलिङ्गे बहुवचने अस्ति इति कारणतः
मधुरतमानि
मधुरतमानि इति प्रयुक्तम्. मधुर इति विशेषणमस्ति. सर्वाणि मधुराणि सर्वाणि मधुराणि तेषु सुभाषितानि इतोपि मधुराणि इत्युक्ते मधुरतमानि इति. अस्तु, अत्र किमर्थं तमप्रत्ययान्तं किमर्थं तमप्रत्ययान्तस्य लिङ्गं यदस्ति तद् वचनं यदस्ति तद् इति प्रदर्शितम् अस्ति. अत्र नववाक्यानि दत्तानि, तेषु किं प्रदर्शितं किमर्थं तमप्रत्ययान्तपदस्य प्रयोगः कृतः अपि च किमर्थं तमप्रत्ययान्तस्य पदस्य लिङ्गं यदस्ति तद् अपि च वचनं यदस्ति तद् प्रयुक्तम् इति अपि प्रदर्शितम् अस्ति. अस्तु, अस्तु, अग्रे सरेम, किञ्चित् समयः अस्ति. अस्तु, अग्रे अत्र कश्चन अभ्यासः अस्ति. अत्र दशवाक्यानि सन्ति. अस्तु, अत्र सुमित्रा भगिनी भवती त्रीणि वाक्यानि करोतु.
यतोदाहरणम् आवरणात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत. उदाहरणमस्ति अजगजयोः अजः कृशतरः. अज गज इति द्वयोर्मध्ये कृशतरः अस्ति गजः, कृशतरम् अस्ति, अतः तरप्रत्ययस्य.
अत्र किमस्ति अजः कृशः, गजः अपि कृशः प्रायः, तादृशः गजः अस्ति, कृशः गजः अस्ति, प्रायः बालगजः अस्ति चिन्तयामः. द्वयोः मध्ये एकः, अत्र विषयकः द्वयोः मध्ये इति कारणतः तरप्रत्ययान्तपदस्य प्रयोगः. अपि च अजः इति पुल्लिङ्गे एकवचने अस्ति इति कारणतः तरप्रत्ययान्तस्य एकवचने इति चिन्तनमत्र.
प्रथमवाक्यमस्ति नारीषु शकुन्तला आवरणे सुन्दरतरा सुन्दरतम. अत्र बहवः नारीषु इत्यस्य कृते सुन्दरतमा इति भवति. अत्र नारी शकुन्तला इति स्त्रीलिङ्गपदमस्ति, अपि च एकवचने, अतः सुन्दरतमा.
अत्र नारीषु इति कारणतः बह्वीषु नारीषु अस्तु अग्रे द्वितीयं वाक्यं
पाण्डवेषु युधिष्ठिरः गुणवत्तमः गुणवत्तरः अत्रापि गुणवत्तमः इति पाण्डवः इति पञ्चानां पाण्डवानां युधिष्ठिरः अतः गुणवत्तमः इति
अस्तु तृतीयं वाक्यं
काकमयूरयोः काकस्य स्वरः कर्कशतरः कर्कशतमः अस्तु काकमयूरयोः इति द्वयोर्मध्ये कर्कशतरः इति एव भवति तरप्रत्ययस्य
अस्तु समीचीनम् अस्तु अग्रे अत्र पद्मनाभं महोदय वाक्यत्रयं करोतु
अस्तु महोदय गृहेषु मङ्गलः भूमेः समीपतरः
पुनः पुनः
गृहेषु
किल गृहेषु न गृहेषु
गृहेषु मङ्गलः भूमेः समीपतरः
अत्र समीपतरः किमर्थं महोदय
अत्र द्वयो बहुषु एकः न
हा बहुषु एकः अतः
समीपतरः
न बहुषु एकः अस्ति चेत् तरप् वा तमप् वा बहुषु
भूमिः
न बहुषु एकः अत्र दूरस्य प्रसङ्गः कः समीपः अस्ति भूमेः समीपः अस्ति इति
अस्तु समीपतमः
गृहेषु मङ्गलः भूमेः समीपतमः इति अत्र बहवः ग्रहाः सन्ति तेषु मङ्गलः भूमेः अतिशयेन समीपः अस्ति अतः मङ्गलः समीपतमः इति वदेम अस्तु अग्रिमम्
सिंहव्याघ्रचित्रेषु व्याघ्रः क्रूरतमः
अत्र त्रयाणां प्रसङ्गः तेषु एकः
तेषु एकः क्रूरतमः
अस्तु अग्रे
आफ्रिका अमेरिका राष्ट्रयोः अमेरिकाराष्ट्रं भारतदेशात् दूरतरं द्वयोः एकः अतः दूरतरम्
अस्तु समीचीनम् अस्तु मलर् भगिनी अग्रे वाक्यद्वयं पठतु भगिनी भवति
आम् गृहेषु पिकस्य स्वरः मधुरतरः मधुरतमः अत्र मधुरतमः इति गृहेषु इति बहु गृहेषु पिकस्य स्वरः मधुरतमः
खग अत्र खगेषु ख महाप्राण खकार
खगेषु
खगेषु
गान्धी अरविन्द मार्गयोः गान्धिमार्गः दीर्घतरः दीर्घतमः अत्र द्वयोः तुलना अस्ति अतः दीर्घतरः
अस्तु समीचीनं लक्ष्मी भगिनी समापयतु
अस्तु महोदय जनेषु गुणी गुणरागी च जनः विरलतमः अत्र जनः इति पुल्लिङ्गशब्द बहुवचनम् अस्ति अतः तमप्रत्ययस्य उपयोगं दृश्यते अत्र जनः इति एकस्य एव उल्लेखनम् अस्ति अतः केवलं एकवचनस्य उपयोगं भवेत् अतः विरलतमः इति साधु इति मन्ये महोदय
आम् आम् समीचीनम् अत्र विरलतमौ न भवेत् गुणी गुणरागी इति एकस्मिन् जने एव कथनस्य आशयः इत्युक्ते गुणी इति कश्चन स्वभावः गुणरागी इति कश्चन स्वभावः स्वभावद्वयमपि एकस्मिन् एव जनेषु यः गुणीगुणरागी च जनः अस्ति सः विरलतमः इति कथनस्य आशयः अस्तु नो चेत् अत्र कश्चन संशयः भवितुमर्हति गुणी गुणरागी च अत्र किमर्थं द्विवचने नास्ति अत्र द्वयोः एकस्मिन्
जनः एव अत्र
जनः
एकः जनः एव अस्ति अत्र अतः तस्मिन् विषये केवलम् एकवचनमेव उपयोक्तुं शक्यते अतः विरलतमः इत्येव साधु इति अस्ति अनन्तरं जनेषु उत्तमः वक्ता विरलतमः अस्ति अत्र जनः इति पुल्लिङ्ग बहुवचनम् अस्ति बहुषु विषयेषु एकस्य उल्लेखनम् अस्ति इति कारणतः तमप्रत्ययस्य उपयोगं भवेत् अत्र वक्ता इति एकवचनम् अस्ति अतः विरलतमः इति एकवचनस्य उपयोगं विरलतमः इति अस्ति अनन्तरं दाता पुनः अत्र एव दाता इति एकवचनम् अस्ति अत्र अतः विरलतमः एव बहुषु जनेषु दाता पुनः विरलतमः एव साधु इति अहं मन्ये
किमर्थं पुल्लिङ्गे अत्र भगिनी विरलतमः इति
दाता इति अस्ति दातृशब्दः ऋकारान्त पुल्लिङ्ग एकवचनमस्ति महोदय
किमर्थं वक्ता वक्ता
वक्तृ वक्तृ अपि वक्तृ ऋकारान्त पुल्लिङ्ग एकवचनं वक्ता अस्ति महोदय
अस्तु समीचीनम् अस्तु अत्र अद्य स्थगयामि आगामिसप्ताहे अग्रे सरेम प्रश्नाः सन्ति वा अस्तु सुमित्रा भगिनी समापयति वा
पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय नमस्कारः
धन्यवादः महोदय शुभदिनं शुभरात्रिः
धन्यवादः महोदय
धन्यवादः महोदय
धन्यवादः विरमामि